इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी प्रावोचत् यत् देशस्य जीडीपी इति सकल गृहोत्पादाः प्रतिशतं अष्टपरिमितेन विवर्धमानाः सन्ति। अतः तद्दिनं दूरं नास्ति यदा भारतं वैश्विकस्तरे तृतीया बृहत्तमे अर्थव्यवस्था भविष्यति। ह्यः नवदिल्ल्यां विकसित भारत की ओर यात्रा इति विकसित भारतं प्रति यात्रा ऐषमः केन्द्रीय वित्त संकल्पना पत्रक सम्मेलनस्य बजट औद्घाटनिक सत्रं सम्बोधयन् आसीत्। प्रधानमन्त्री उक्तवान् यत् प्रशासनेन जनजीवनं सरलीकर्तुं कौशलविकासेष् आजीविकाक्षेत्रेष् च विशेषं ध्यानं दीयते। असौ उक्तवान् यत् वृत्तेः अवसराणाम् उत्पादकेष् सूक्ष्म लघु मध्यम उद्यमेष् अपि सविशेषं ध्यानं दीयते। अमुना प्रोक्तं यत् सर्वकारेण समेषां नागरिकाणां जीवनं सरलं विधातुं जीवनस्य गुणवत्ता सुनिश्चीयते। एकदिवसीयस्य सम्मेलनस्य आयोजनं भारतीयोद्योग परिसंघद्वारा विहितमासीत्, यस्योद्देश्यः विकासार्थं सर्वकारस्य व्यापक दृष्टिकोणस्य उद्योगानां च भूमिकानां रूपरेखा प्रस्तवनम् अस्ति। उद्योगक्षेत्रस्य शासनस्य राजनैतिक समुदायस्य विमर्शदलानां च पारे सहस्रं प्रतिभागिनः वैयक्तिकरूपेण अस्मिन् सम्मेलने भागं भजितवन्तः। वित्तमन्त्री निर्मला सीतारामनः सबलं प्रतिपादितवती यत् सर्वकारः राजकोषीय हानि प्रक्षेपवक्रस्य अनुपालनं करोति। पञ्चविंशत्यधिकद्विसहस्रं षड्विंशत्यधिकद्विसहस्रं वर्षं यावत् तच्चत्वारि दशमलव पञ्च प्रतिशतात् न्यूनं करिष्यति। सुश्री सीतारामनः लोकसभायां चतुर्विंशत्यधिकद्विसहस्रं पञ्चविंशत्यधिकद्विसहस्रं केन्द्रीय आयव्यय संकल्पनापत्रस्य चतुर्विंशत्यधिकद्विसहस्रं पञ्चविंशत्यधिकद्विसहस्रतमवर्षस्य जम्मूकश्मीर केन्द्रीयक्षेत्रस्य च आयव्यय संकल्पनापत्रस्य विषये चर्चायाः उत्तरं ददति स्म। सीतारामनः प्रोक्तवती यत् भारतं कोविड महामार्याः अनन्तरं द्रुततरं वर्धमानम् अर्थव्यवस्था अस्ति। सा अवदत् यत् सप्तचत्वारिंशदधिकद्विसहस्रतमवर्ष पर्यन्तं विकसित भारतस्य निर्माणार्थं सर्वैः मिलित्वा कार्यं करणीयम्। सा अवदत् यत् विगत दशके वृत्त्यावसराः वर्धिताः सन्ति, तथा च चतुर्दशाधिकद्विसहस्रतमे वर्षे चतुस्त्रिंशत् प्रतिशतात् पञ्चविंशत्यधिकद्विसहस्रतमे वर्षे एकपञ्चाशत् प्रतिशतं यावत् वर्धितः अस्ति। केरलस्य वायनाड जनपदे ह्यः प्रभाते दुरापन्ने भूस्खलने नैके जनाः पञ्चतां प्राप्ताः आसन्, येष् साम्प्रतं यावत् भूम्यन्तरवर्तिनः दशाधिकैकशतं मिताः शवाः भूस्खलनस्थलात् अधिगताः सन्ति। ध्वंसावशेषेष् निरुद्धानां जनानाम् उद्धाराय अधुनापि आपद्मोचनबलानि राज्यसर्वकारस्य विभागाः जनता च पूर्णतोदृशा प्रयासपराः सन्ति। दुर्घटनाम् इमाम् आलक्ष्य राष्ट्रपतिः द्रौपदी मुर्मू, उपराष्ट्रपतिः जगदीप धनखडः, प्रधानमन्त्री नरेन्द्रमोदी च गहनां शोक संवेदनां प्रकाशितवन्तः। वियतनाम देशस्य प्रधानमन्त्री फाम मिन चिन्ह गतरात्रौ त्रिदिवसीय यात्रायां नवदिल्लीं सम्प्राप्तवान्। तेन सह नैके मन्त्रिणः, उपमन्त्रिणः, व्यापारक्षेत्रस्य नेतारः, उच्चस्तरीयं प्रतिनिधिमण्डलम् अपि यात्रायां भविष्यति। फ्रांसदेशस्य पेरिस नगरे अनुष्ठीयमाने ओलम्पिक इत्याख्ये क्रीडा महाकुम्भे ह्यः मनुभास्करेण, सर्वज्योत सिंहेन च मिश्रित दश मीटर एयर पिस्टल शूटिंग इति भुशुण्डिका लक्ष्यभेदन स्पर्धायां दक्षिण कोरियायाः युगलं दश अंकान् विरुध्य षोडश अंकैः पराभूय कांस्यपदकम् अर्जितम्। अपि च क्रिकेट क्रीडायां भारतेन ह्यः पल्लेकेले अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे तृतीये अन्तिमे च द्वन्द्वे विंशति प्रतिविंशति क्रीडायाः सुपर ओवर इत्यस्यां क्रीडायां श्रीलंकादलं पराजित्य श्रृंखलायां त्रीणि शून्यम् इत्यंकान्तरालेन विजितम्। इति वार्ताः।